एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली राष्ट्रिय गौरवस्य आयोजनायाः रूपेण प्रतिष्ठिताम् उपरितन तामाकोष जलविद्युत आयोजनाम् इह उद्घाटयत्। बाल्वाटार वर्तिनी प्रधानमन्त्री निवासे आयोजिते समारोहे प्रधानमन्त्री ओली श्रव्यदृश्य प्रविधेः संयोजनस्य माध्यमेन 650+ मेगावट क्षमतायाः आयोजनायाः प्रथमम् खण्डम् उद्घाटयत। आयोजनाम् उद्घाटयन् प्रधानमन्त्री ओली अवासत उपरितन तामाकोशी जलविद्युत आयोजनायाः निर्माण सम्पन्नतामनु राष्ट्रिय आत्मविश्वासः वर्धितो वर्तते। असौ अवोचत् वैदेशिकानाम् आधारेण विना स्वस्यैव निवेशनेनापि बहूनि कार्याणि विधातुं शक्यन्ते इत्युदाहरणम् उपरितन तामाकोशी परियोजना वर्तते। विकासः अस्माकं सर्वेषां समाना आवश्यकता स्थिति चर्चयन् प्रधानमन्त्री ओली अकथयत् उपलब्धिरपि सर्वेषां वर्तते। कार्यक्रमे उपप्रधानोर्जमन्त्री विष्णु पौडेलः जलविद्युत उत्पादनस्य इतिहासे उपरितन तामाकोशी आयोजना क्रोशशिला भवितुं सफलास्तीति चर्चयन् अब्रवीत् एतद् औद्योगिकोत्पादनाय महद् योगदानं भविष्यति। नैपालक वित्तेन निर्मितायाः उपरितन तामाकोशी आयोजनायाः विशिष्ट महत्वं वर्तते इति वर्णयन् असौ अगदत् नेपाले अतः परं कदापि विद्युद्भार न्यूनीकरणं न भविष्यति। प्रधानमन्त्रिणा विहितम् उद्घाटनमनु राष्ट्रिय गौरवस्य रूपेण प्रतिष्ठितायाः उपरितन तामाकोशी जलविद्युदायोजनायाः प्रथमखण्डात् 670 मेगावट मितायाः विद्युत उत्पादनं प्रारब्धं वर्तते। सर्वोच्च न्यायालयेन प्रतिनिधिसभायाः विघटनेन सम्बद्धस्य न्यायिक प्रकरणस्य निर्णयः अस्यैव आषाढस्य 28 दिवसे श्रावयिता। आदेशाभियाचन निवेदनस्य सम्पूर्ण श्रवणस्य समाप्तिमनु न्यायालयेन अस्यैव आषाढस्य 28 दिवसे निर्णयाय दिनांकाः निर्धारिताः सन्ति। प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जबरा इत्यस्य दीपक कुमार कार्की मीरा खड्का ईश्वर प्रसाद खतिवड़ा डाक्टर आनन्द मोहन भट्टराई चेती वरिष्ठानां न्यायाधीशानां च सांविधानिक न्यायपीठे ह्य निवेदकानां पक्षतः प्रत्युत्तरात्मक विमर्शनस्य न्यायालय सहयोगिनां पक्षतः विमर्शनस्य च समाप्तेः अनन्तरं सम्पूर्णं श्रवणं समाप्तमस्ति। निर्वाचनायोगेन प्रतिनिधिसभायाः सदस्यानां निर्वाचनस्य कार्यतालिका स्वीकृता वर्तते। प्रमुख निर्वाचनायुक्तस्य दिनेश कुमार थपलियाविदस्य अध्यक्षतायां ह्य उपविष्टेन आयोगस्य उपवेशेन आगामिनः कार्तिक मासस्य 26 दिवसे शुक्रवासरे प्रथमचरणस्य मार्ग मासस्य 3 दिवसे शुक्रवासरे द्वितीय चरणस्य चेति कृत्वा चरणद्वये सम्पत्स्यमानस्य प्रतिनिधिसभायाः सदस्यानां निर्वाचनस्य कार्यतालिका स्वीकृतेति निर्वाचनायोगस्य प्रवक्ता राजकुमार श्रेष्ठः ज्ञापयत। स्वीकृत कार्यतालिकायाः अनुसारेण अस्यैव आषाढ मासस्य 31 दिवसात् आगामिनः श्रावण मासस्य 15 दिवसं यावत् निर्वाचनस्य प्रयोजनाय राजनीतिक दलानां पञ्जीकरणस्य कार्यक्रमो वर्तते। मतदातृणाम् अन्तिम नामावल्याः प्रकाशनम् आगामिनो भाद्र मासस्य 23 दिवसे भविष्यतीति प्रवक्ता श्रेष्ठः ज्ञापितवान्। राष्ट्रिय सभाया ह्यस्तनोपवेशे सांसदाः सामयिक विषयेषु देशे सम्प्रति उत्पन्नया राजनीतिकावस्थया श्रेष्ठस्य प्रभावस्य विषये च सर्वकारस्य ध्यानम् आकर्षयन् उपवेशस्य विशेष समये सांसदाः कोरोना नियन्त्रणस्य सर्वकारेण प्रभावकारी कार्यं कर्तव्यं सर्वेभ्यः यथासमयं टीकाकरणं विधातव्यम् इति च अयाचन्त। सांसदाः जलविप्लव भूस्खलन जलनिमग्नताभिः पीडितेभ्यः परिवारेभ्यः सहयोगस्य उद्धारस्य च कार्येषु समये एव ध्यानं प्रदातुं सर्वकारम् अनुरुद्धवन्तः। राष्ट्रियसभाया ह्यस्तनोपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः विधि न्याय संसदीय विषय मन्त्री लीलानाथ श्रेष्ठः राष्ट्रिय सूचनायोगस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनम् प्रस्तोत। एवमेव उपवेशे राष्ट्रिय सम्बद्धता समन्वय समितेः सभापति दिल कुमारी रावल राष्ट्रिय सम्बद्धता समन्वय समिते गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतवती। राष्ट्रिय सभाया अपरोपवेश स्वत्रयोविंशे दिवसे बुधवासरे दिवा एकवादने वस्ता। नेपाले गतदिने 24 घण्टानाम् अवधौ अतिरिक्तेषु 1002 22.67 जनेषु कोरोना विषाणो संक्रमणं पुष्टीभूतं वर्तते। एतस्मिन् अवधौ कोरोना संक्रमणेन 23 जना मृता। अनेन सह ह्यस्तनावधि नेपाले कोरोना संक्रमणेन मृतानां जनानां संख्या 9048.2 च प्राप्ता वर्तते। पूर्वेद्यो 1011.2 जना कोरोना संक्रमणात् मुक्ता सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसार अनुसारेण सम्प्रति आराष्टम् पञ्चविंशतिः सहस्राणि नवत्यधिक षट्शतं च सक्रिय संक्रान्ता जना सन्ति। एतेषु द्वाविंशतिः सहस्राणि अष्टनवत्यधिक नवशतं च जना गृहकान्तवासेषु विद्यमानाः सन्ति। धनुषा जनपदे क्रियान्विताम् निषेधाज्ञाम् अतिरिक्ताम् सहजाम् विदाय अस्यैव आषाढस्य एकत्रिंशम् दिवसम् यावत् वर्धयितुम् निर्णीतम् अस्ति। धनुषा जनपद कोविड उनविंशते संकट व्यवस्थापन समिते ह्य उपविष्टेन उपवेशेन एवम् निर्णीतम् वर्तते। एवमेव कञ्चनपुर जनपदे गत वैशाखस्य षोडश दिवसात् क्रियान्वितायाः निषेधाज्ञायाः समयः पुनः दश दिनानि वर्धाप्य आषाढ मासान्तम् यावत् प्रापितो वर्तते। जनपद कोविड व्यवस्थापन केन्द्रस्य ह्य सोमवासरे उपविष्टेन उपवेशेन निषेधा ईषत सहजीकृत्य अस्यैव मासान्तं यावत् वर्धयितुं निर्णीतमिति कञ्चनपुर प्रमुख जनपदाधिकारी रामप्रसाद पाण्डे अज्ञापयत्। बागमती प्रदेश सभायाः उपवेश अपर सूचनायाः प्रकाशनम् यावत् स्थगितकृतो वर्तते। प्रतिपक्षि दलानाम् अवरोधस्य कारणेन गत शनिवासरादनु उपविष्टः उपवेश ह्य दिवा एकवादनाय आहूत सन्नपि विपक्षि दलानां सांसदै पुनः विरोध ज्ञापनस्य अनन्तरं सभामुख सानु कुमार श्रेष्ठ अपर सूचनाय प्रकाशनं यावत् प्रदेश सभाया उपवेशं स्थगित कृतवान् इति समाचारः।